अथ एकविंशः पाठः षष्ठः खण्डः अन्यदा प्रभावती गमनाय शुकं पप्रच्छ शुकः प्राह कृशोदरि व्रजाद्य त्वं यदि जानासि भाषितुं जारसंयुक्तया पूर्वं यथा देविकया कृतम् अस्ति कुहाडाख्यो महाग्रामः तत्र जरसाख्यो कौटुम्बिको महामूर्खः तद्भार्या देविका पुंश्चली तां च प्रभाकरो ब्राह्मणः क्षेत्रमध्ये विभीतकवृक्षसमीपे गुप्तस्थाने मुदा रमते ईदृशं व्यतिकरं जनात्श्रुत्वा तत्पतिस्तत्रावलोकनाय स्वयं गतः तेन च वृक्षारूढेन तत् तथैव दृष्टम् दृष्ट्वा तत्रस्थेनापि जल्पितम् धूर्तिके बहुदिनेभ्योऽद्य सम्प्राप्ता इत्युक्ता कथमियं भर्तारं प्रत्याययतु तयोक्तं नाहं जाने त्वमेव कथय यदि न यासि तदा कथयामि तया तथेति प्रतिपन्ने शुकः प्राह सा च तद्वचः श्रुत्वा तं जारं प्रेषयामास पत्या चावतीर्य समागतेन उपलब्धा साह हे प्रभो ईदृश एव वृक्षः अत्रारूढैर्मिथुनं दृश्यते तेन पतिना उक्तं त्वम् आरुह्य अवलोकय तया तथा कृतम् वृक्षारूढया च तया प्रोक्तं कपटेन बहुदिवसेभ्योऽन्यां नारीमभिगमन् दृष्टोऽसि तेन मूर्खेण ज्ञातं सत्यमिदम् स च तां शान्तयित्वा गृहं निनाय इति कथां श्रुत्वा प्रभावती सुप्ता